कस्य नो नङ्कतमस्यामृतानां मना महे चारुदेवस्य नाम को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च अग्नेर्वयं प्रथमस्यामृतानां मना महे चारुदेवस्य नाम स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च अभित्वा देवसवितरीशानं भार्याणाम् सदा वन्धागमीमहे यश्चिद्धित इत्था भगः शशमानः पुरा निदः अद्वेषो हस्तयोर्दधे भगभक्तस्य ते भयमुदशे मत वावसा मूर्धानम् राज आरभे न हि ते क्षत्रं न सहो न मन्यं वयश्च नामि पतयन्त आपोः नेमा आपो अनिमिषञ्जरन्तीर्नजे भातस्य प्रमिनन्द्यभ्रम् अबुध्ने राजा वरुणो मनस्योर्ध्वं स्तूपं ददते पूतदक्षः नीचीनास्थुरुपरि बुध्न एष भस्मे अन्तर्निहिताः केतवः स्युः उरं हि राजा वरुणश्चकार सूर्या जपन्थामन्वेतवाओ अपदे पादा प्रतिधातवे करुतापभक्ता हृदया विधश्चित् शतन्ते राजन्भिषजः सहस्रपुर्वेगभीरा सुमतिष्ठे अस्तु बाधस्वदूरे निररतिम् पराचैः कृतम् चिदे नः प्रभवभ्यस्मत् अमीयरक्षा निहिता स उच्चानक्तम् ददृश्रे कुहचिद्दिवेजुः अदब्धानि वरुणस्य व्रतानि विचाकषच्चन्द्रमा नक्तमेति तत्त्वा जामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेळमानो वरुणेह बोध्युरुषं समान आजः प्रमोषेः तदेन्नक्तं दद्दिवा मह्यमाहुस्तदजं केतो हृद आविचष्टे शुनश्ये पोजमह्वग्रभेतः सो अस्मान् राजा वरुणो मुमोक्तो शुनश्ये पो ह्यह्वद्ग्रभेतस्तृष्वा आदित्यन्द्रपदेषु बद्धः अवयेनम् राजा वरुणः ससृज्याद्विद्वाम् अदब्धो विमोक्तो पाशान् अवते हेणो वरुणनमोभिरवयज्ञेभिरेमहे हविर्भिः क्षयन्नस्मभ्यमसुरप्रचेता राजन्नेनांसि शिश्रधः कृतानि उदत्तमम् वरुणपाशमस्मदवाधमम् विमध्यमम् श्रथाय अथा वयमादित्यव्रते तवानागसो अदितये स्याम